इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। प्रधानमन्त्रिणा नरेन्द्र मोदिना आर्थिक परामर्श परिषदः सदस्यैः सह एकस्याः सभायाः अध्यक्षता कृता। भारतस्य आर्थिक परिवर्तनस्य दीर्घकालिक विकास प्राथमिकतानां विषयेषु च विस्तृताः विषयाः चर्चिताः। विदेशमन्त्री डॉ एस जयशंकरः अद्य सायंकाले नवदिल्ल्यां नेपालदेशस्य विदेशमन्त्रिणा शिशिर खनाल इत्यनेन सह वार्तालापं करिष्यति। पंजाबराज्ये अद्य प्रातः फिरोजपुर फाजिल्का मार्गे वाहन ट्रक यानयोः सह संघट्टे न्यूनातिन्यूनं नवजनाः मृताः। सीबीएसई इत्यनेन अंकानां सत्यापनाय पुनर्मूल्यांकनाय च आवेदनपत्राणां प्रस्तुतीकरणस्य अन्तिमा तिथिः श्वः पर्यन्तं विस्तारिता। अपि च क्रिकेट क्रीडायां सूर्यकुमार यादवस्य स्थाने श्रेयस अय्यरः भारतीय दलस्य नूतनः टी20 इति अन्ताराष्ट्रिय दलस्य नायकः नियुक्तः। वैभवः सूर्यवंशी च प्रथमं वारं दले समाविष्टः। अथ वार्ताः विस्तरेण। प्रधानमन्त्रिणा नरेन्द्र मोदिना अद्य आर्थिक परामर्श परिषदः सदस्यैः साकं विहितोपवेशनस्य अध्यक्षता विहिता। उपवेशने परिषदीय सदस्याः प्रधानमन्त्री तथा च भारतस्य आर्थिक वृद्धि उन्नेतुं सदस्यैः सह विभिन्न विचाराणाम् उपायानां च विषये चर्चिताः। जीवनस्तरे व्यापारे च सुगमताम् आनेतुम् अपि विचार विमर्शः सञ्जातः। सदस्यैः पश्चिमेशिया संघर्षे भारत विश्वे च परिलक्षितानां प्रभावानां आकलन विषयेऽपि सम्भाषणं विहितम्। सामाजिकान्तर्जालीये सन्देशे प्रधानमन्त्रिणा प्रोक्तं यत् भारतीय अर्थव्यवस्थायाः संरचनां दीर्घकालिक विकास प्राथमिकतां सम्बद्धप्रकरणानां विषये भारतं द्रुतगत्या अग्रे सरति। प्रधानमन्त्रिणा विविधेषु विषयेषु स्वविचाराः प्रकटिताः। सुगमजीवनम् एव सुगमव्यवसायः इत्येतयोः विषये अपि चर्चा जाता। विदेशमन्त्री डॉ एस जयशंकरः अद्य सायंकाले नवदिल्ल्यां नेपालदेशस्य विदेशमन्त्रिणा शिशिर खनाल इत्यनेन सह वार्तालापं करिष्यति। नेपालदेशस्य विदेशमन्त्रालयेन उक्तं यत् उपवेशनावधौ उभौ पक्षौ परस्पर हितानां विषयेषु चर्चिष्यतः, यस्मिन् व्यापारः, निवेशः, सम्पर्कः, ऊर्जा, जनसम्पर्केत्यादिषु प्रमुखेषु क्षेत्रेषु सहकारं वर्धितुं शक्यते। विदेशमन्त्रालयस्य प्रवक्ता रणधीर जयसवालः अवदत् यत् इयं यात्रा भारत नेपालदेशयोः विशेष सहभागित्वम् इतोऽपि सुदृढं करिष्यति। सः अवोचत् यत् द्वयोः देशयोः मध्ये चर्चासु विकास सहयोगः, जनेषु सम्बन्धः, व्यापारः, निवेशादि विस्तृताः कार्यक्रमाः सम्मिलिताः सन्ति। पंजाबराज्ये अद्य प्रातः फिरोजपुर फाजिल्का मार्गे एकस्यैव कुटुम्बस्य सदस्यान् वहन्तं वाहनस्य ट्रकयानेन सह संघट्टे न्यूनातिन्यूनं नवजनाः मृताः, द्वाविंशतिजनाश्च व्रणिताः। पीडिताः सर्वे एकस्यैव कुटुम्बस्य सदस्याः आसन्। ये परिवारे मृतस्य एकस्य जनस्य अस्थिविसर्जनाय व्यासनद्यां गच्छन्तः आसन्, तदैव एषा दुर्घटना अभवत्। बहवः जनाः घटनास्थले एव मृताः इति कथ्यते, अपि च व्रणिताः चिकित्सायै फिरोजपुर सिविल चिकित्सालये, फरीदकोट चिकित्सकीय महाविद्यालये च प्रेषिताः। आरक्षकाधिकारिणः आकाशवाण्या सह वार्तालापे उक्तवन्तः यत् द्वाविंशतिजनेषु बहवः गभीराः सन्ति। घटनायाः अनन्तरं शीघ्रमेव वरिष्ठाः आरक्षकाधिकारिणः दुर्घटनास्थलं सम्प्राप्य स्थानीयनिवासिनां साहाय्येन उद्धारकार्यम् आरब्धवन्तः। व्रणिताः निष्कास्य समीपस्थेषु चिकित्सालयेषु प्रवेशिताः। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज़ ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। सीबीएसई इति केन्द्रीय माध्यमिक शिक्षा परिषदा अंकसत्यापनार्थं सहैव पुनर्मूल्यांकनार्थं आवेदन प्रस्तुतेः अन्तिमा तिथिः श्वः पर्यन्तं वर्धिता। सामाजिकान्तरजालीय पटले एकेन सन्देशेन परिषदा प्रख्यापितं यत् छात्राः इदानीं श्वः मध्यरात्रिं यावत् स्व आवेदनानि प्रस्तोतुं शक्नुवन्ति। सीबीएसई इत्यनेन प्रोदीरितं यच्छात्रहितं मनसि निधाय आवेदन प्रक्रियां पूरयितुं छात्रेभ्यः अतिरिक्त समय प्रदानाय एषः निर्णयः स्वीकृतः। एतस्मात् पूर्वं आवेदनस्य अन्तिमा तिथिः अस्यैव मासस्य 6 दिनांकं यावतासीत्। परिषदा सर्वेभ्यः योग्य छात्रेभ्यः परामृष्टं यत् ते निर्धारित समये एव स्व आवेदन प्रक्रियां सम्पादयन्तु। केन्द्रीय युव कार्य क्रीडा मन्त्री मनसुख माण्डवीयः अद्य भाषितवान् यत् भारतीय युवजनाः राष्ट्रस्य शक्तयः विद्यन्ते तथा च ते 47-2000 वर्षपर्यन्तं विकसित भारतस्य स्वप्नं प्रत्यक्षीकरणे प्रमुखां भूमिकां निर्वहिष्यन्ति। नवदिल्ल्यां समायोजिते विकसित भारताय युवा मम भारतं युवसम्मेलनं सम्बोधयन् असौ उक्तवान् यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना यूनां विचाराणां स्वाभिलाषाणां राष्ट्रनिर्माणाय स्वैच्छिक सेवाभावस्य आदान प्रदानार्थं मम भारतम् इति मञ्चं विनिर्मितम्। दिल्ल्यारक्षीबलेन मालवीय नगर अग्निकाण्डस्य सम्बन्धे केशव नेगी नामाख्यं भोजनालयस्य पाचकं निगृहीतम्। एषः अग्निकाण्डः अस्य मासस्य 3 दिनांके मालवीयनगरस्थिते एकस्मिन् भोजनालये सञ्जातः। अस्यां दुर्घटनायां 21 जनाः मृताः 44 हताः। पूर्वमेव आरक्षिदलेन भोजनालयस्य स्वामिम् अयं नरः हत्यायाः अन्येषां सम्बद्ध अपराधानाम् आरोपेषु गृहीतः आसीत्। रक्षामन्त्री राजनाथसिंहः उक्तवान् यत् भारतम् अद्यापि विश्वस्य द्रुततमां वर्धमानां प्रमुखार्थव्यवस्थानां मध्ये विशिष्टं स्थानं धारयति। साम्प्रतं बहवः देशाः आर्थिक अनिश्चिततां सम्मुखीकुर्वन्तः सन्ति। गतप्रवर्तमान वित्तवर्षयोः मध्ये 7.7% सकल गृह्योत्पादनवृद्धेः उल्लेखं कुर्वन् श्रीसिंहः अवदत् यत् एषा उपलब्धिः भारतीय अर्थव्यवस्थायाः दृढताम् अथ च अन्तर्निहितं सामर्थ्यं प्रदर्शयति। हॉकीति क्रीडायां भारतीय पुरुषदलेन अद्य काकामी गाहारा नगरे आयोजिते निर्णायक स्पर्धायां आतिथेयं जापान दलं 4-1 इत्यंकैः पराजित्य तृतीयं वारं एशिया कप अंडर-18 विजितम्। तत्रैव भारतीय महिला दलेनापि दक्षिण कोरिया दलं 3-0 इत्यंकैः पराजित्य कांस्य पदकं विजितम्। भारतीय क्रिकेट नियंत्रण मण्डलेन BCCI इत्यनेन अद्य इंग्लैंड आयरलैंड देशयोः क्रीडा यात्रायै 16 सदस्यानां 20-20 अन्ताराष्ट्रिय दलस्य घोषणा कृता। सूर्यकुमार यादवस्य स्थाने श्रेयस अय्यरः भारतस्य नूतन T20 दलस्य नायकत्वेन नियुक्तः, अपि च तिलक वर्मा उपनायक रूपेण नामांकितः अस्ति। BCCI इत्यनेन प्रथमं वारं वैभव सूर्यवंशी इत्यमुम् अपि दले समाविष्टम्, येन गत IPL सत्रे सर्वाधिक धावनांकाः समर्जिताः। प्रिंस यादवोऽपि दले सम्मिलितः अस्ति। अद्य मुंबई नगरस्य BCCI मुख्यालये आयरलैंड इंग्लैंड देशयोः यात्रायै जापान देशे एशियन गेम्स क्रीडायाः कृते तथा च भारत अदलस्य श्रीलंका प्रवासस्य बहुदिवसीय क्रीडायाः कृते दलस्य निर्णयार्थं एषा सभा आयोजिता इति वार्ताः।